गणपति गुम्हा महे कविं कवीनामुपमः। प्रविद्वान् प्रतिशस्य तस्रः तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान् नित्यम् विश्वम् नारायणगुम्हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति परिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा काशगुम् हृदयम् चाभ्यगोमुखम् अहो निश्यावितस्यान्ते नाभ्यामुपरि तिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् गत्या कोशसन्निभम् तस्यान्ते शिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाशिर्विश्वतोमुखः सोऽग्रभूद्विभजन् तिष्ठन्नाहारभजरः कविः तिर्यभूर्वमदशायी रश्मयस्तस्य सन्तता सन्तापयस्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अनियो तन्वी पीता वा स्वध्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मश्च शिवः स हरिस्येन्द्रः सोऽक्षरः परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वहेतम् विरूपाश्रम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ॐ योगाम् पुष्पम् वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा
यतनम् वेद आयतनवान्।
संवत्सरस्यायतनं वेद